इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। संसदीय निर्वाचनस्य प्रथमचरणाय प्रचाराभियानं शीर्षस्तरं भजते। राजनीतिक दलानां वरिष्ठ नेतारः मतदातृन् आक्रष्टुम् अनेकाः जनसभाः पथ प्रदर्शनीं च कुर्वन्ति। भाजपेति दलस्य संकल्पपत्रस्य प्रकाशनानन्तरं मध्यप्रदेशस्य नर्मदापुरम जनपदस्य पिपरिया क्षेत्रे एकं सार्वजनिकोपवेशनं सम्बोधयन् प्रधानमन्त्री अभिव्यक्तवान् यत् भाजपेति दलस्य घोषणापत्रमिदं युव महिला कृषक निर्धनेभ्यः समर्पितम् अस्ति। अस्य घोषणापत्रस्य लक्ष्यं चत्वारिंशदधिकैकशतकोटिः जनानां स्वप्नानां पूरणम् अस्ति। असौ उक्तवान् यत् सामाजिक भौतिक आंकिकीय संरचनानां सुदृढविस्तारः भाजपेति दलस्य शीर्षप्राथमिकता भवति। भाजपादलस्य वरिष्ठनेता केन्द्रीयमन्त्री च राजनाथसिंहः समुदीरीतवान् यत् भाजपादलम् एव स्वीय वचनानि पूरयति। बिहारस्य जमुई बांका जनपदयोः सार्वजनिकोपवेशनेषु प्रवदन् असौ मन्त्री अवदत् यत् घोषणापत्रेऽस्मिन् स्पष्टं लिखितं वर्तते यत् अनुच्छेदस्य 70+300 ट्रिपल तलाक इत्येतस्य च अपि वचनानि दलेन प्रपूरितानि। इंडी संयुत्याः प्रत्याशिभ्यः नैर्वाचनिक जनसमागमं कुर्वन् राजदनेता तेजस्वी यादवः सबलं प्रत्यपादयत् यत् केवलं इंडी संयुति दलमेव यूनां स्वप्नान् पूरयितुं शक्यते। रक्षानुसंधान विकास संघटनेन भारतीय सैन्यबलेन च स्वदेशे निर्मितस्य मानव द्वारा सुवाह्यस्य एंटी टैंक गाइडेड प्रक्षेपास्त्रस्य साफल्येन परीक्षणं कृतम्। परीक्षणमिदं राजस्थानस्य पोखरणे शनिवासरे जातम्। अस्य प्रक्षेपास्त्रस्य उपयोगः अहर्निशं कर्तुं शक्यते। एतस्मिन् प्रक्षेपास्त्रे आधुनिक योद्ध टैंक वाहनस्य ध्वंसनस्य क्षमता अपि विद्यते। रक्षामन्त्री राजनाथसिंहः सफल परीक्षणानन्तरं संघटनाय भारतीय सेनायै च वर्धापनानि प्रदत्तवान्। असौ प्रक्षेपास्त्रमिदं उन्नत प्रौद्योगिकीयाधारित रक्षाप्रणाल्याः विकासे महत्वपूर्ण पदक्षेपः कथितवान्। विदेश मन्त्रालयेन इजराइल ईरान देशयोर्मध्ये संवर्धमाने पारस्परिक विद्वेषे अभिशंका अभिव्यक्ता। मन्त्रालयेन निगदितं यत् भारतं इजराइल ईरान देशयोर्मध्ये प्रतिकूल स्थितिं प्रति गभीररूपेण व्याकुलम् अस्ति। अनेन प्रकरणेन क्षेत्रे शान्तिः सुरक्षा च संकटे स्तः। भारतेन उभाभ्याम देशाभ्याम हिंसां दूरीकर्तुं कूटनीतिपथि प्रत्यागमनाय च प्रार्थितः। अवधेयं वर्तते यत् ईरान देशेन इजराइल देशे ड्रोन बैलिस्टिक क्रूज इत्यादिभिः प्रक्षेपास्त्रैः आक्रमणं कृतम्। सम्पूर्णे इजराइल देशे ह्यः प्रातः कालादेव वायवीय संचेतना यन्त्रम् गुञ्जायमानम् अस्ति। भारतेन नेपालदेशस्य विभिन्न जनपदेषु स्वास्थ्य शिक्षयोः क्षेत्रेषु कार्यरतेभ्यः विविध संघटनेभ्यः 35 रुग्ण वाहनानि 66 च विद्यालयीय लोकयानानि उपहाररूपेण प्रदत्तानि। एतेषां यानानां कुञ्जिकाः भारतीय दूतेन नवीन श्रीवास्तवेन नेपालस्य वित्तमन्त्रिणः वर्षमान पुनस्य उपस्थितौ समर्पिताः। आईपीएल इत्यस्यां क्रिकेट प्रतिस्पर्धायां ह्यः मुम्बय्याः वानखेड़े क्रिकेट क्रीडांगणे चेन्नई सुपर किंग्स दलेन मुम्बई इंडियंस दलं 20 धावनांकैः पराजितम् इति वार्ताः।